एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्रिणः पुष्पकमल दाहाल प्रचण्डस्य नेकपा एमाले दलस्य अध्यक्षस्य केपी शर्मा ओलिनश्च मध्ये गत सायं मेलवार्ता अभवत्। बालकोटवर्तिनी अध्यक्षस्य ओलिनः निवासे सम्पन्ने मेलने अनयोर्मध्ये मन्त्रिपरिषदः विस्तार प्रवृत्तिषु सामयिक विषयेषु विमृष्टमिति प्रधानमन्त्रिणः सचिवालयो ज्ञापयति। प्रधानमन्त्रिणा प्रचण्डेन परैह संसदः विश्वासस्य मतस्य प्राप्त्यानन्तरं मन्त्रिपरिषदे पूर्णता प्रदानस्य विषये अध्यक्षेण ओलिना सह मिलितमिति सचिवालयोऽसौ सूचयति। लुम्बिनी प्रदेश कर्णाली सुदूर पश्चिम प्रदेशानां मुख्यमन्त्रिणः ह्यो नियुक्ताः सन्ति। लुम्बिनी प्रदेशस्य मुख्यमन्त्रीपदे नेकपा एमाले संसदीय दलस्य नेता लीलागिरी नियुक्तो वर्तते। लुम्बिनी प्रदेशस्य प्रदेश प्रमुख अमिक शेरचन नेपालस्य संविधानस्य अनुसारेण गिरी इत्यमुम् मुख्यमन्त्रिणम् अयुङ्क्त। अद्य लुम्बिनी प्रदेशस्य राजधान्यं राप्त्युपत्यकायां दिवा एकवादने शपथ ग्रहण कार्यक्रमो वर्तते। मधेस प्रदेशस्य मुख्यमन्त्रिणी जनता समाजवादी संसदीय दलस्य नेता सरोज कुमार यादव नियुक्तो वर्तते। प्रदेश प्रमुख हरिशंकर मिश्र नेपालस्य संविधानस्य अनुसारेण यादवम ह्यो मुख्यमन्त्रिणम् अयुङ्क्त। कर्णाली प्रदेशस्य मुख्यमन्त्रिणी नेकपा माओवादी केन्द्रस्य राजकुमार शर्मा नियुक्तोऽस्ति। प्रदेश प्रमुख तिलक परियार नेपालस्य संविधानस्य अनुसारेण शर्माणम् पूर्वेद्यो मुख्यमन्त्रिणम् नियुक्तवान्। एवमेव सुदूर पश्चिम प्रदेशस्य मुख्यमन्त्रिणी नेकपा एमाले प्रदेश संसदीय दलस्य नेता राजेन्द्र सिंह रावल नियुक्तो वर्तते। प्रदेश प्रमुख देवराज जोशी नेपालस्य संविधानस्य अनुसारेण मुख्यमन्त्री पदाय ह्यैव प्रस्तुत सत्व ज्ञापनम् रावलम् मुख्यमन्त्रिणम् अयुङ्क्त। अत्रान्तरे सुदूर पश्चिम प्रदेशस्य सभामुख पदाय माओवादी केन्द्रस्य भीमबहादुर भण्डारिणा नेपाली कांग्रेस दलस्य मान बहादुर रावले न च प्रत्याशिता पंजीकारिता वर्तते। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड सर्वेषां दलानां संयुक्त प्रधानमन्त्रिण रूपेण प्राप्तेन विश्वासस्य मतेन आत्मनि समाह्वया दायित्वञ्च वर्धितानि सन्तीति निगदति। उद्योग वाणिज्य संघस्य गोर्खा जनपद शाखाया आयोजनायां गोर्खा जनपदस्य मुख्यालय ह्य प्रारब्धम् एकादश गोर्खा महोत्सवम् एतद् विक्रमवर्षीयां प्रदेश स्तरीय कृषि पर्यटनोद्योगिक व्यापार मेलाञ्च उद्घाटयन् प्रधानमन्त्री प्रचण्ड संयुक्त प्रधानमन्त्रिण रूपेण कार्यम् कर्तुम् ऐतिहासिक अवसर प्राप्तोऽस्ति अयञ्च अवसर आत्मना महत समाह्वयस्य अवसरस्य च रूपेण मतोऽस्तीति अवोचत्। प्रधानमन्त्री प्रचण्ड अवोचत् अतः परं देशस्य विकासाय समृद्धये च गति प्रदास्यते। तत्पूर्वं नेकपा माओवादी केन्द्रस्य भातृ संघटनस्य वाईसीएल नेपालस्य कार्यक्रमं कार्यक्रमे सम्बोधयन् काष्ठमण्डपे सम्बोधयन् प्रधानमन्त्री प्रचण्ड आत्मने समाह्वय पूर्णावसर प्राप्तोऽस्ति अयञ्चावसर यूनां सहभागितात एव पूरयितुं शक्यते इत्युक्तवान्। एकोत्तर त्रिशततम्या पृथ्वी जयन्त्या अवसरे ह्यो राष्ट्रपति विद्यादेवी भण्डारी रामशाहपथस्थितस्य सिंहप्रासाद पश्चिमद्वारस्य पुरतो विद्यमानायं पृथ्वीनारायणस्य प्रतिमायं माल्यम् अर्पयत्। ह्य एव राष्ट्रपति भण्डारी काजीपदीयस्य कालूपाणेभिधस्य दहचोकस्थितयो समाधिस्थले प्रतिमायं च माल्यम् अर्पितवती। कालूपाणे पृथ्वीनारायण शाहस्य सेनापतिः आसीत्। एतस्मिन् क्रमे राष्ट्रिय प्रजातन्त्र दलं पृथ्वी जयन्ती राष्ट्रियकता दिवसस्य अवसरे ह्य काष्ठमण्डपे चायपान कार्यक्रमम् आयोजयत। कार्यक्रमे नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली नेकपा एकीकृत समाजवादिनः अध्यक्ष माधव कुमार नेपालः नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलः उप प्रधानमन्त्री द्वयम् नारायण काजी श्रेष्ठ रवि लामी छानेछ विभिन्नानां राजनीतिक दलानां नेतारः नेपाल सर्वकारस्य उच्चहि पदाधिकारिणश्च सहभागिनः आसन्। चायपान कार्यक्रमे सहभागिनी आमन्त्रित व्यक्तिः राष्ट्रिय प्रजातन्त्र दलस्य अध्यक्ष राजेन्द्र लिङ्गदेन नेतारः बुद्धिमान तामाङ रविन्द्र मिश्र निरञ्जन थापा धवल शमशेर राणा च स्वागत वचोभि अभ्यर्थयन्। नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपालः भासते भ्रष्टाचार नियन्त्रणस्य विकास निर्माणस्य च कार्याय गति प्रदानस्य आशया अपेक्षया च दलेन प्रधानमन्त्रिणे प्रचण्डाय विश्वासस्य मतं प्रदत्तं वर्तते। दल निकटस्थेन अनेराश्वव्यो विद्यार्थी संगठनेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे अध्यक्षो नेपाल पञ्चदश शपथेन सह विश्वासस्य मतं प्रदत्तमिति चर्चयन् प्रधानमन्त्रिणा जनापेक्षाया अनुसारेण कार्यं विधास्यते इत्यत्र आत्मनः विश्वासोऽस्तीति अवोचत्। अध्यक्षो नेपाल विश्वासस्य मतग्रहणस्य वेलायं प्रधानमन्त्रिणा प्रचण्डेन व्यक्ताया प्रतिबद्धताया अनुसारेण कार्येषु कृतेषु सत्सु स्वस्य दलेन प्रतिपक्ष स्थित्वापि सहयोगो विधास्यते इत्यवोचत्। स्वास्थ्य जनसंख्या मन्त्रालयेन मसुरीका रक्तचिन्हका मसुरीकाभ्याम् बालबालिका रक्षितुम् एतत् प्रतिरोधिना टीकाकरणाय सर्वे अनुरूद्धा सन्ति। स्वास्थ्य जनसंख्या मन्त्रालयस्य अन्तर्गतेन राष्ट्रिय स्वास्थ्य शिक्षा सूचना संचार केन्द्रेण बालबालिका मसुरीका रक्त चिन्नक मसुरिकाभ्यां रक्षितुं नवमासेष् टीकाकरणस्य प्रथम मात्रां पञ्चदश मासानां प्राप्ते अनन्तरं द्वितीयां मात्रां च आधातुं सर्वे अनुरुद्धाः सन्ति। नेपालगंज स्थाने मसुरिका रक्त चिन्नक मसुरिकयोः रुग्णानां दृष्टेः अनन्तरं स्वस्य बालबालिकाभ्यः टीकाकरणाधानाय एवं अनुरुद्धमस्ति। वीरगंजस्थाने शैत्यात् आत्मानं रक्षितुं प्रकोष्ठस्य अभ्यन्तरे अंगारकं प्रज्वाल्य शयनस्य अवस्थायं श्वास प्रश्वासस्य अवरोधेन ह्यो जनद्वयं मृतं वर्तते। वीरगंज महानगरपालिकायाः द्वाविंश वडा क्षेत्रस्य जगन्नाथपुरे अंगारक विक्रयणापणे कार्यं विदधतौ भारतस्य बिहार राज्यस्य 29 वर्षीय पवित्र गिरी 30 वर्षीय मिथिलेश यादवश्च श्वास प्रश्वासयोः अवरोधेन मृतोति पर्सा जनपद प्रहरी कार्यालयेन ज्ञापितं वर्तते। अंगारापणस्य एकतलात्मक भवनस्य कोष्ठस्य अभ्यन्तरे वातायनं द्वारञ्च पिधाप्य सुप्तं जनद्वयं प्रातः विलम्बनं यावत् अनुत्थापनस्य पश्चात् द्वारं त्रोटयित्वा दृष्टं सद् मृतावस्थायं प्राप्तमिति पर्सा जनपद प्रहरी कार्यालयस्य प्रवक्ता दीपक गिरी अज्ञापयत्। रोल्पा प्युठान दाङ मार्ग खण्ड अद्यत अनिश्चितकालाय पिधाप्यते। अमुम मार्गम आश्रित्य सञ्चल्यमानानां यातायात साधनानां गमनागमनाय प्रातः सायं चेति कृत्वा प्रतिदिनं वारद्वयम् आंशिक समयाय मार्ग अनावृतो विधीयते। प्रातः षड्वादनात् एकादशवादनं यावत् घण्टात्रयस्य सायं च पञ्चवादनात् नववादनं यावत् घण्टाचतुष्टयस्य च समयं निर्धार्य यातायातस्य साधनानां सञ्चालनाय अनुमतिं दातुं निर्णीतं वर्तते। मार्गस्य पिधानावधौ अशक्तवाहक यानस्य शववाहनस्य सुरक्षाकर्मिणां यानस्य च प्राथमिकतया गमनागमनाय व्यवस्थापिता स्थिति रोल्पा प्रमुख जनपदाधिकारी नवराज सापकोटा अज्ञापयत्। अस्मिन् वर्षे विहिताया जलपक्षिणां गणनाया क्रमे नवलपरासी वर्धघाट सुस्तापूर्व जनपदे 43 प्रजातीनां पक्षिणः प्राप्ताः सन्ति। चितवन राष्ट्रिय निकुञ्जस्य पश्चिम क्षेत्रीय पक्षीगणनाया संयोजक डीबी चौधरी अस्मिन् वर्षे पक्षिणां गणनायां 38 प्रजातीनां पक्षिणः प्राप्ताः सन्तीति अज्ञापयत्।